रत्नथा पूर्वथा विश्वचेमथा ज्येष्ठथा दिम्बर्हिषदम् स्वर्विदम् प्रतीचीनम् व्रजनम् दोहसे गिरासुञ्जयम् तमनुजा सुवर्धसे श्रिये सुदृशीरुपरस्य या स्वर्विरोचमानः ककुभामचोददे सुगोपासिनदभाय सुक्रतो परो माजाभिर्रत आसनामते अत्यम् हविस्सचते सच्च धातु चारिष्टगातुः सहोदासहो भरीः प्रसर्स्रानो अनो बर्हिर्वृषा शिशुर्मध्ये युवाचरो विसृहाहितः प्रपायेते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्यारृता वृथाः सुयन्दोभिः सर्वसासैरभीसोभिः कृभिर्नामानि प्रवने मूषायति सन्दर्भूरानस्तरोभिः सुते गृहम् वयाकिनम् चित्तगर्भासु सुस्वरोः धारवाकेष्वेजाथशोभसे वर्धस्वपत्नीरभिजीवो अध्वरे जागेव ददृशे दादृगुच्छते संसायजादधिरे सिद्ध्रजात्स्वा महीमस्मभ्यमुरुषामुरुद्रयो बृहत्सुवीरमनवच्युतम् सहाः वेत्यग्रजनीवान् वातिस्पृथः समर्यतामनसा सूर्यः कविः घ्रम् संरक्षन्तम् परि विश्वतो गजमस्माकम् सर्ववनवत्स्वावसुः ज्यायाम् समस्य यतुनस्य केतुना ऋषिस्वरम् च रतियासु नामते यादृस्मिन्दायितमपश्ययाविदर्यवुः स्वयम् वहते सो अरम् करत् समुद्रमादामवतस्थे अग्निमानरिष्यति सपानम् यस्मिन्नायता अत्राणहार्दिक्रवनस्य रेजते यत्रामतिर्विद्यते भूतबन्धनि स हि क्षत्रस्य मनसस्य चित्तिभिरेवापदस्य यजतस्य सद्रेः अवत्सारस्य स्पृणवामरण्वभिः सविष्ठम् वाजम् विदुषा चिदर्ध्यम् क्षो ओमदो विश्ववारस्य यजतस्य माजिनाः समन्यमन्यमर्थयन्तेत वे विदुर्विषाणम् परिपानमन्दिते सदा प्रणो यजतो विद्विषो बधीद्बाहुवृत्तश्रुतवित्तर्यो वत्सजा उभादवरा प्रत्येति भाति च यदीम् घनम् भजते स्वप्रजाभिः सुतम् भरो यजमानस्य सत्त्वाजर्विश्वासामूधः स धिया मुदञ्जनः भरद्धेनोरसवच्छ श्रिये पयो नुब्रुवाणो अध्येति न स्वभरन् यो जागारतमृचः कामयन्ते यो जागारतमुसामायन्ति यो जागारतमजम् सोम आहतबाहमस्मि सख्येऽन्योकाः अग्निर्जागारतमृतः कामयन्ते अग्निर्जागारतमुसामानियन्ति अग्निर्जागारतमजम् सोम आहतबाहमस्मि सख्येऽन्योकाः जागर्षित्तम् भुवने जातवेदो जागर्षयत्रे जाते हविष्मान् इदम् हविश्रद्धधानो जुहो विजेन पासि गुह्यम् नाम गोनाम् विदादिवो विष्यन्नद्रिमुक्थैरायत्यावुषसो अर्चिनो अपामृतवृजिनीरुत्सर्गाद्विदुरो मानुषीर्देवावः विसूर्यो अमतिम् न श्रियम् साधोर्वाद्गवाम् माता जानदीगाद् धन्वन्नसो नद्या अःखादो अन्नास्थूने वसुमीतादृम्भद्यौः अस्मावुक्थाय पर्वतस्य गर्भो महीनाम् जनुषे पूर्याय विपर्वतो जिहीतसाध दद्यौरा विवासन्तो दशगन्तभूम सूक्तेभिर्वोवचोभिर्देवजुष्टैरिन्द्रान्वा अग्नि अवसेहुमध्यैः मुक्तेभिर्युष्मा कवयस्व यज्ञा आविभासन्तो मरुतो यजन्ति एतोन्वा अद्य शुद्ध्यो ओ भवामप्रदुच्छुनामि न वा मावरीयः आरे द्वेषांसि सनदर्दधामायामप्राञ्चो यजमानमच्छ एताधियम् कृणवामासखायोपयामाताङ्गेषुतभङ्गोः यजामनुर्विशिप्रम् जिगा यजामनिग्भङ्गुरा पापरीषम् अनू नो दत्र हस्तगतो अद्रिरार्चङ्गे रदस मासो न भग्वाः ऋतम् यदि सरमागाविन्दद्विश्वानि सत्याङ्गीराश्चकार विश्वे अस्याव्युषिमाहीनायाः संयद्गोभिरङ्गीरसो नमन्त उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमाविदद्गाः आसूर्यो यातु सप्ता स्वाहा क्षेत्रम् यदस्योर्व्या दीर्घयाते रघुस्येनः पादयदन्धो अच्छायुवा कविर्दीदयद्गोषु गच्छन् आसूर्यो अरुगच्छुक्रमर्णो युक्तयद्धरितो वीरवृक्षाः उद्ज्ञाननामनयन्दधीरा आशृण्वतीरापो अर्वागतिष्ठन् भियम् वो अप्सुतधिषे स्वर्षाम् यजातारन्तसमासो नमग्वाः अजाधियास्यामदेवगोपा अजाधिया तु दुर्यामात्यङ्घाः हयो न विद्वाङ्गायि स्वयम् धुरिताम्बहामि प्रतराणीमवस्युमम् नास्यावस्विमिवृतन्नावृतम् पुनर्विद्वान् तसः पूरयेत ऋजुमेषति अग्नयिन्द्रवरो न मित्रदेवाः शर्धप्रयम् तमारुतोत विष्णो उभानासत्या रुद्रो अधघ्नाः पूषा भगः सरस्वती जुषन्त इन्द्राग्निमित्रावरुणादीम् स्वः पृथिवीञ्जा मरुतः पर्वताम् अपः भुवे विष्णुम् पूषणम् ब्रह्मनस्पतिम् भगन्नु संसंसवितारमूतये उदनो विष्णोरुतवातो अश्रुधो द्रविनोद उदसो मोमयस्करत् उदर्भव उदराजेनो अश्विनो दत्वक्षोत विद्भानो मंसते उदत्यन्नो मारुतम् सर्धागमद्दिभिक्षयम् च जतम् बर्हिरासते बृहस्पतिः शर्म भूषोतनो यमद्वरूथ्या अम्बरो नो मित्रो अर्जमा उदत्येनः पर्वदासुषस्तयस्सुधीयो नद्या अस्त्रामाणे भुवनम् भगो विभक्ता सवसा वसागमलुव्यचारीति श्रोतुमेहम् देवानाम् पत्नीरुसतीरवन्तु नः प्रावन्तु नस्तु जयेवाज साधये याः पार्थिवासो या अपामपि व्रते तानो देवीष्वपाः शर्म यच्छत उदग्नाव्यन्तु देवपत्नीरिन्द्राण्यायश्विनीलाट् आरोदसी वरुणानि शृणोतव्यन्तु देवीर्यरुतिर्जनीनाम् अपि वादयमनाः हरिः ॐ प्रयुञ्जति जिवये दिब्रुवाणा मही माता दुहितुर्बोधयन्ति आविवासन्ति युवतिर्मनीषा पितृभ्यः सदने जोहुवाना अजिरासस्तद भयीयमाना आतस्थिवांसो अमृतस्य नाभिम् अनन्तास मुरवो विश्वतस्यीम् परिद्या वा पृथिवीयम् दिपन्थाः उक्षासमुद्रो आरुढस्सु पर्णः पूर्वस्य योनिम् पितुरावीवेश मध्ये दिवो निहितः प्रश्निरस्माभिचक्रमे रजस्वस्पात्यन्तौ चत्वारायीम् बिभ्रदिक्षेमयन्तो दशगर्भम् चरसे धापयन्ते त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परिसद्यो अन्तान् इदम्बपर्मिवचनञ्जनादश्चरन्ति यन्नद्यस्तस्थुरापाः द्वे यदीम् बिभृतो मातुरन्ये इहेह जाते यम्या आसबन्धु विदम्बते धियो अस्मा अपाम् धिवस्त्रा पुत्राय मातरो वयन्ति वप्रक्षे वृष नो मोदमाना दिवस्पथा वद्भोजन्त्यच्छ ततस्तु मित्रा वरुणा तदग्ने संयोरस्मभ्यमिदमस्तु सस्तम् असीमहि गाधमुत प्रतिष्ठाम् नमो दिवे बृहते साधनाय कदुप्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयसते महे वयम् आमेन्यस्य रजसोयदभ्रहा अपोरिणानावितनोति मायिनी तात्र वयनम् वीरवक्षणम् समान्यादया विश्वमारजाः अपो अपाजीरपरा अपेजये पूर्वाभिस्तिरते देवयुर्जनाः आग्रवभिरहण्येभिरक्तिभिर्वरिष्ठम् वज्रमाजिघत्तिमाजिनी शतम् वायस्य प्रचरान् स्वेदमेवम् वर्तयन् तोऽपि च वर्तयन्नः तामस्य रीतिम् परशूरिव प्रत्यनीकमख्यभुजे अस्य वर्पसः स जायति विदुमन्दविवक्षयम् रत्नम् दधाति भरहूतये विषे स जिह्मया चतुरनीकरिञ्जते चारुपसा नोवरु नो यदनम् नरिम् न तस्य विद्मपुरुषत्मदा भयम् यतो भगः सविता दाति भार्यम् देवम् वो अद्य स पिता रमेशे भगम् जरत्नम् विभजन्तमायोः आवान्नरापुरुभुजावृत्याम् दिवे दिवे चिदश्विना सखीयन् प्रतिप्रजानयमसूरस्य विद्वान् सूक्तैर्देवम् स पितारम् दुभस्य उपब्रवीदनमसा विजानन् ज्येष्ठम् चरत्नम् विभजन्तमायोः अतत्र जातयते वार्याणि पूषा भगो अदितिर्वस्तपुश्रः इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहाणि भद्रा जनयन्तदस्माः तन्नो अनर्वास पितावरूतम् तत्सिन्धवजिषयम् तो अनुग्मन् उपयद्वोचे अध्वरस्य होता राजस्यामपदायो वाजरत्नाः प्रजेव स्वभ्ययैव नमो दुर्ये मित्रे वरुणे सूक्तवाचः अवै त्वभ्वम् कृणुतावरीयो दिवस्पृथिव्योरवसावदेम सूक्ताम् ते तृणान्यज्ञावरण्ये वोचकेऽपि वा यस्तृणैरध्ययनम् सदधीतम् स्तृणानि भवते भव वापी कूपतटाकाणाम् समुद्रम् गच्छस्वाहा विश्वो देवस्य नेदुर्मर्तो गुरीतसख्यम् विश्वो राजजी शुद्ध्यति द्युम्नम् ऋणीतपुष्यसे एते देवनेतर्ये चेमानुससे ते राजा ते ह्या आवृचेते महि सगच्छैः अतो न आर्णति धीरतः पत्नीर्दशस्यत आरे विश्वम् पथेष्टाम् द्विषो यूयूत यूयूभिः यत्र वह्निरभिहितो दुद्रभद्रोऽन्यः पशुः भ्रमणा वीरपश्चोर्नाधीरे वसनीता येष ते देवनेतारथस्पतिः संरयिः सम्राजे संस्वस्तस्तुतो मनामहे देवस्तुतो मनामहे अग्ने सुतस्य पीतये विश्वैरूमे निरागहि देवेभिर्हव्यदातये ऋतधीतय आगतसत्य धर्मानो अध्वरम् अग्नेः पीपत जिह्वया विप्रेभिर्विप्रसं च प्रादर्यावभिरागहि देवेभिः सोम पीतये अयम् सोमश्चमूर्षतो मत्रे परिषिच्यते प्रिय इन्द्राय वायवे वाजवाजाहि वीतये जुषानो हव्यदातये पिबासुतस्याम् धसो अभिप्रजाः इन्द्रश्च वाजवेषाम् सुतानाम् पीतिमर्हतः ताञ्जुषेधामरेपसामभिप्रजाः सुता इन्द्राय वाजवे सोमासो दध्यासिरः निम्नम् नयन्ति सिन्धवोऽभिप्रजाः सजोर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः आयाह्यग्ने अग्निवत्सुतेरण सजोर्मित्रावरुणाभ्याम् सजोः सोमेन विष्णुना आयाह्यग्ने अग्निवत्सुतेरण सजूरानित्यैर्वसुभिः सजूरिन्द्रेण वायुना आयाह्यग्ने अग्निवत्सुतेरण स्वस्तिनोः मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणाः स्वस्ति पूषा असूरो दधातु नः स्वस्ति द्यावा पृथिवीषु चेतुना स्वस्तये वायुमुपब्रुवामहै सोमम् स्वस्ति भुवनस्य यस्पतिः बृहस्पतिम् सर्वगणम् स्वस्तये स्वस्तय आदित्यासो भवन्तु नः विश्वे देवानो अद्य स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये देवामन्त्रिभवः स्वस्तये स्वस्तिनो रुद्रः पात्मम् हसः स्वस्ति मित्रावरुणा स्वस्ति पक्षेरेवति स्वस्ति अगिन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि स्वस्ति पन्थामनुचरेम सूर्या चन्द्रमसा विव पुनर्दतदाग्नता जानता सङ्गमेमहि स्वस्तजनन्तार्क्षमरिष्टनेमिम् महद्भूतम् वायसम् देवतानाम् असुरघ्ननिन्द्रसखम् समत्सु बृहद्यशो नावविवारुहेम अम्भोम च माङ्गिरसङ्गयम् च स्वस्त्यात्रेयम् मनसा च तार्क्ष्यम् प्रयतपाणिः शरणम् प्रपद्ये स्वस्ति सम्बाधेष्वभजम् नो अस्तु कस्या वा स्वधृष्ण्यार्चामरुद्धर्ऋक्वभिः ये अद्रोघमनुष्वदाम् श्रवो मदन्ति यज्ञियाः ते हि स्थिरस्य सवसः सखायः सन्ति धृष्णया ते यामन्ना दृढद्विनत्मनापान्ति सश्वतः ते स्पन्दासो नोक्षणो तिष्कन्दन्ति सर्वरीः मरुतामधामहो दिविक्षमा च मन्महे मरुत्सु बोधधीमहि स्तोमम् यज्ञम् च धृष्णया विश्वे ये मानुषा युगापान्तिमर्त्यम् वृषः अर्हन्तो ये सुदानवो नरो असामि सवसः प्रयज्ञम् यज्ञेभ्यो दिवो अच्च मरुद्भ्यः आरुग्मैरायुधारिष्वारिष्टिरसृक्षत अन्वेना विद्युतो मरुतो जज्जदीरिव भानुरत्तत्मना दिवः एवा वृधन्तपार्थी वायपुरावन्तरिक्षा वृजने वा नदीनाम् सधस्ते वा महो दिवः शर्धो मारुतमुच्छम् स सत्यसर्वसमृग्भासम् उदस्मते शुभेन रप्रस्पन्द्रायुजदत्मना उदस्मते परुष्ण्यामूर्णावसरसुन्ध्यवाः उदभव्यारथा नामद्रिम् भिन्दन्त्योजसा आपथयो विपथयोन्तस्पथा अनुपथाः एतेभिर्मह्यम् नामभिर्यज्ञम् विष्टारवोहते अधानरोऽन्योहते धानियुतवोहते अधापारावतायति चित्रारूपाणि दर्श्या छन्दस्तु भक्कुभन्यभवुत्समाकीलिनो मृदुः ते मे केचिन्नदाय बहूमा आसन् कृषिद्विषे यदृष्वारिष्टिविद्युतः कवयः सन्ति वेधसाः तमृषे मारुतम् गलम् नमस्य रमया गिरा अच्छर्षे मारुतम् गलम् दारा मित्रन्न योषणा दिवो वा धृष्णवोजसास्तुता दीभिरीषण्यत नूमन् बाणयेषाम् देवाङ्गच्छानवक्षणा दाना स चेत सूरिभिर्यावश्रुतेभिरञ्जिभिः प्रवेमे बन्धेषे गाम् वोचन्त सूरयः प्रश्निम् वोचन्त मातरम् अथा पितरविष्णिनम् रुद्रम् वोचन्त सिक्वसः सप्तमे सप्तसाकिनयेकमेका सदा ददुः यमुना यामधिश्रुतमुद्राधो गव्यम् मृजे निराधो अस्व्यम् मृजे को वेदजानमेषाम् को वा पुरा सुन्नेष्वा समरुताम् यद्योजुज्रे कीलास्याः ऐतान्वथेषु दस्तुषः कस्वस्रावकथायजुः कस्मै दस्रुसुदासे अन्वापजलिलाभिर्वृष्टयः सह ते मा आहुयायजुरुभज्युभिर्विभिर्मदे नरो मर्या अरेपस इमान् पश्यन्निजुष्टिः ये अञ्जुषु ये वासीषु स्वभानवस्रक्षुरुग्मेषु खादिषु श्राजारथेषु धन्वसु युष्माकम् स्मारताम् अनुमुदे दधे मरुतो जीरदानवः वृष्टीद्यावो यदीरिव आयम् नरस्वानवो दासुषे दिवको समचुच्चवः विपर्जन्यम् सृजन्ति रोदसी अनुधन्वनायन्ति वृष्टयाः तदृदानाः सिन्धमहाक्षोदसारथप्रसस्रब्धेन वो यथा स्यन्नास्वायुवाध्वनो विमोचने वियद्वर्तन्तयेन्याः आयादमरुतो दिव आन्तरिक्षादमादुता मावस्थादपरावताः मा वो रसानीतभागुभाक्रमर्मावस्सिन्धर्निरीरमत् मा वः परिष्टात्सरजः पुरीषण्यस्मे यत्सुम्नमस्तु वः तम् वश्वर्धम् रथानाम् वेषम् गणम् मारुतम् न व्यसीनाम् दृष्टयाः शर्धम् शर्धम् वयेषाम् प्रातम् प्रातम् गणम् गणम् सुसक्तिभिः अनुक्रामे मधीतिभिः कस्मा अद्य सुजाता जरातहौजाय प्रजायुः येनायामेन मरुताः येन तोकायतनजाय धान्या अम्बीजम्बहद्वे अक्षीतम् अस्मभ्यम् तद्धत्तनयद्वजीमहे राधो विश्वायुसौभागम् अतीयामनिदस्थिरस्वस्तिभिर्हित्वा मध्यमराती दृष्टी संयोरापमुश्रिभेषजाम् श्याम मरुतः सह सुदेवस्य महायति सुवीरो नरो मरुतः समर्थ्याः यन्त्रायध्ये श्यामते स्नि भोजान्स्तुभतो अस्य याम निरणङ्गाभो न यवसे यतः पूर्वादेव सखी गणुह्वय गिरा गृणीः प्रसर्धाय मारुताय स्वभानवजिमाम् वाच मनजा पर्वतच्युते धर्मस्तु भे दिवापृष्टयज्वाले द्युम्नस्रभसे महीनृम्नमर्चत नभो मरतस्त विषाभूदन्यवो वजो वृधो अश्वयुजः परिद्रयः संविद्युदादध दिवासदि त्रितस्वरञ्जापो मना परिद्रयः विद्यन्माहसो नरो अस्मादिद्यवो वादद्विषो मरुतः पर्वतच्युताः अब्दया जन्मुहुराह्रादुनिवृधस्तनजदमारभसा उदोजसः अक्तोन्रुद्राव्यहारिषिक्वसोऽव्याहन्तरिक्षम् यथा विदुर्गाणि मरुतो नाहरिष्यत तद्वीर्यम् वो मरुतो महित्वरम् दीर्घम् ददानसूर्यो न योजनम् एतान जामे अग्रे भीतसो जिषो न स्वधान्यन्नयातनागिरिम् अभ्राजिसर्धो मरुतो यदम् नरम् मोलाधा वृक्षम् कपलेव वेधतः अथ स्मानो अरमादिम् सजोषसश्चक्षुरिभयन्तमनूनेषधा सुखम् न सजीयते मरुतो रहन्यते न श्रेधति न व्यधते न ऋष्यति नास्य राजमुपदस्यन्ति नो दशर्षिम् भाजम् राजानम् वासुषूदथ नियत्वम् ग्रामजितो यथा नरोर्यमनो न मरुतः कबन्धिनाः तिन्वन्त्यत्संयदिनासो अश्वरण्यन्दन्ति पृथिवीम् मध्वो अन्धसा प्रवत्वदीयम् पृथिवी मरुद्भ्यः प्रवत्वदीर्योर्भवति प्रयद्भ्यः प्रवत्वदेः पथ्या अन्तरिक्षा प्रवत्वन्तः पर्वता जीरदानवः यन्मारुतः स भरतः स्वर्णरः सूर्य उदिते मदधादिवो नरः नभो श्वाश्रथयन्ता हसिश्रतः सद्यो अस्याध्वनः पारमस्मृथ हंसेषु वरिष्ठयः पत्सुखादयो वक्षस्व ऋक्मामरुतो रथे शुभाः अग्निर्भ्राजतो विद्युतो गभस्योऽस्य प्रासीर्णस्विलदाहिरण्ययीः तन्नागमर्यो अग्रे भेदसो जिषमृषत्पिप्पलम् मरुतो विधूरुत समच्चन्दवृजनादित्यषन्दयत्स्वरम् दिघोषम् विदधमृतायवः युष्मा दत्तस्य मरुतो विचेदसो राजस्यामरथ्यो वयस्वतः न यो युच्छादि दुष्यो ओजसादिवोस्मेरारन्दमरुतस्सहस्रणम् यूयम् रयम् मारुतस्पार्गवीरम् यूयमृषीमपथसाम विप्रम् यूयमर्वन्तम् भरताय वाजम् यूयम् धत्तराजानम् सृष्टिमन्तम् तद्वो याद्रवीरम् सद्यभूतयोजेनाश्वादनामन्रे रहि इदम् तु मे मरुतोर्यतापचो यस्य तरे मदरसा सतम् हिमाः प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधे रूपवक्षसः ईयम् ते अश्वैः सुयमेभिरासुभिशुभम् याता मनुरथा अवृत्सत स्वयम् दधिभेदवीषीम् यथा विदृहन्नाहान्तपुर्भिया विराजथ उदान्तरिक्षम् अमिरेव्योजसाशुभम् याता मनुरथा अवृत्सत साकम् जाता शुभः साकमुक्षिता श्रेजिता प्रतरम् वा वृधर्नराः गिरोकिनः सूर्यस्येव रश्वयशुभम् जाता मरुथा अवृत्सत आभूषेण्यम् वो मरुतो महि त्वरम् दीदृक्षेण्यम् सूर्यस्येव चक्षणम् उतो अस्मामृतत्वे दधाधनशुभम् जाता मनुरथा अवृत्सत उदीरयथा मरुतः समुद्रतो योजम् वृष्टिम् वर्षयथा पुरीषिणः नभो दस्रा उपदस्यन्ति धेनवः शुभम् जाता मनुरथा अवृत्सत यदस्वान्धोषु बृहदीरजुग्मम् हिरण्यजाम् प्रत्यग्रामग्ध्वम् विश्वायुत्स्मृतो मरुतो व्यस्य दशुभम् जातामरुधावृत्सत न पर्वता न नद्यो वरन्तवो यत्राचिध्वम् मरुतो गच्छसे दुधत् उदद्या वा पृथिवीयाधना परिशुभम् जातामनुरथावृत्सत यत्पूर्व्यम् मारुतो यच्च नूतनम् यदुद्यते वसभो यच्च सस्यते विश्वस्य तस्य भवथा न वेदसः शुभम् जातामनुरथावृत्सत बृहद नो मरुतो मावधिष्टलास्मभ्यम् शर्म बहुलम् वियन्तन अधिस्तोत्रस्य सख्यस्य घातनशुभम् जातामनुरथावृत्सत यूयमस्मान्न यदवस्यो अच्छादिरम् हतिभ्यो मरुतो गृणानाः जुषध्वम् नो अव्यदादिम् यजत्रा वयम् स्यामवतयोरयीनाम् अग्ने सर्धम् तमागणम् पृष्टम् रुक्मेभिरञ्जिभिः दिशो अद्य मरुतामवह्वये दिवश्चेद्रोचनादधि यथा चिन्मन्यासे हृदा ददिन्मे जग्मुरासः एतेने दिष्ठम् गमनान्यागमन्तान् बद्ध भीमसन्दृशः मीनुष्णादेव पृथिवी पराहता मदन्त्येत्यस्मदा ऋक्षो नवो मरुतस्य मीवामो दुद्रो गौरीव भीमयोः निजेऽभिमन्त्योजसा वृथा गावो न दुर्धुराः अस्मानञ्चित्स्वर्याम् पर्वतम् गिरिम् रक्षा वयन्ति यामभिः उत्तिष्ठ नूनवेषाम् सोमये स्वमुक्षितानाम् मनुताम् पुरुतमपूर्यङ्गवाम् सर्गामिव ह्वये युङ्धाम् हिरुषीरथे युङ्धम् रथेषु रोहिताः युङ्धम् गरी अजिराधिरिवोढवे महिष्ठाधिरिवोढवे उदस्य वाज्य ऋषस्तु विश्वनि दिघस्मधाय दर्शदः मा भोजामेषु मरुतश्चिरङ्गरत्प्रथमरथेषु चोदज रथन्नमारुतम् वयम् श्रवस्युमाहूवामहे आयस्मिन् तस्थौ शरणानि बिभ्रति सजा मरुत्सु रोदसी तम् वश्वर्धम् रथे शुभम् त्वेषम् बनस्युमाहूवे यस्मिन् सुजाता सुभगा महीयते सजा मरुत्सु मे ऋषी आरुद्रादयिन्द्रवन्तः सजोषसो हिरण्यरथाः सुविता जगन्तन यम् वो अस्मत्प्रतिहर्यते मते तृष्णजेन दिवमुत्सागुधन्यवे आसीमन्तरिष्टिमन्तो मनीषिणः सुधन्वालेषु मन्तो निषङ्गिनाः स्वस्वास्त सुरथाग्निमादरस्वायुधा मारुतो जाथना शुभम् धूनदर्जाम् पर्वतान् दासुषेव सुनिगोपनाजिगते यामानोभिया गोपजाथ पृथिवीम् प्रश्निमातरः शुभे यदुग्राः पृषतीरयुग्भम् पादतिषो मरुतो वर्षणन्निजो यमाजी वसुसदृशः शुभे सह विषङ्गाश्वारुणाश्वा अरेपसप्रत्यक्षसो महिलाद्यौरीवोरमाः गुरुद्रत्साञ्जिबन्तः सुदारभस्वेट सन्दो अनवभ्ररादसः सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतम् नाम भेजिरे दृष्टयो वो मरुतो हंसयो रजिसकभोजो बाह्वोर्वो बलम् हितम् ब्रह्मासीर्षस्वायुधारथेषु गो विश्वाभश्रीरथिरे गोमदस्वा भद्रधावत्सुवीरम् चन्द्रभद्राधो मरुतो ददानः रथस्थिर्न कृणदरुद्रियासो भक्षीय भोवसो दैव्यस्य अजेन रो मरुतो मृणता नस्तु भीमघासो अमृतारुतज्ञाः सत्यश्रुतः कवयो युवानो बृहद्गिरजो बृहदृक्षमाणाः ీమంతమేలాం సృషేజనం మాలోదనం వ్యాసీనాశ్వస్వామద్వహంతకుదేశీరే అమృతస్య స్వరాజా వేరంగణం తవ సంఖాదీహస్తంధునివ్రతం మాజినందాదీవారం మయో భువోయే అమీతామహిత్వా వందస్వ విప్రతు విరాధ సోనృణ్ ఆవోదూతపాగాతో అద్య వృక్షిమ్యే విశ్వే మరుతో జనంది అయం యో అగ్నిర్మారుత సమిద్ధజేదం జూషధ్వం గవయో యువాన యూయం రాజా నమిర్జంజనాయ విభ్వదక్షం జరయథాయ జత్రాః యుష్మదే దిముష్టిగా బాహుజూతో యుష్మత్సదస్వో మరుతః సువీరాః అరాజివేద చ రమా అహే ప్రజాయంతే అగవామహోభి కృష్ణే పుత్రూపమాసోర్భిష్టాస్తామరీక్షుర్వేణుపమిర్మరుదోరథే క్షోదందావోర్యేమో వృఢవక్రందో ప్రతిష్టయామన్ పృథివీజీరేషాం భర్తే భగర్భాం స్వమిచ్ఛబోధుః పాతాన్యస్వాన్ ధుర్యాయుద్రే వర్షం స్వేదం చక్రిరే రుద్రిజాసః అజేన రోమరుతో వృణతానస్తు వీమఘాసో అమృతానృతజ్ఞాః సత్యశ్రుతః కవయో యువానో బృహద్గిరయో బృహదక్షమాణాః ప్రభస్పరక్రం సుభితాయ దావనేర్చాదివే ప్రపృథివ్యాృతంభరే ముక్షంతే అశ్వాం గరుడం దారజో నశ్వం భారం స్రజయంతే అర్ణవైః అమాదేడాం భియసా భూమిరేపూర్ణాక్షర దివ్యధిర్యతి దూరే దృశోజే చితయం భయమభిరంతర్మహే విదధే జేతిరే నరాః గవామివ శ్రియసే శృంగముత్తమం సూర్యో న చక్షూరజ సో విసర్జనే అత్యా ఇవ శుభ్రా అశ్చారవస్తనవర్యా ఇవ శ్రియసే జయతథా నరాః ఓభో మహాంతి మహత ముదస్రవత్కస్కావ్యా మరుతః కోహపౌంస్యూయం అభూమిం కిరణం నరే జత ప్రయద్భరద్వే సుమితాయ దావనే అస్వా ఇవేద ఋషాసస్సమంధవ సూరా ఇవ ప్రయుధ ప్రోదయూయుః మర్యా ఇవ సువృధో వావృధం నరః సూర్య సచక్షః ప్రవీణంతి వృష్టిభిః తే అజ్యేష్టాకానిష్టాస బుద్ధితో మధ్యమా సోమసామివృదు సుజాతాసో జనుషా వృష్ణీ మాతలో దివో మర్యానో అచ్చాయిగాతన వజోనయే శ్రేణీ పాతురో జసాంతాన్ దివో బృహతస్వానో నస్పరి అశ్వాసజేషాముభజే యథా విదుః ప్రపర్వతస్య న భనోంగ్రాజుచ్చవో ీదర్వీదయే నందానో చిత్రావుషసో యదంతా ఆయుచ్చవర్దివ్యం కోశ మేదర్షే రుద్రస్య మరుతో గణానాీణే అగ్నిం స్వయ సన్నమో విరిహ ప్రసప్తో వితాయత్కృతం నా రథైరివ ప్రభరే వాజయద్భిప్రదక్షిణం మరుతాం సోమ వృద్ధ్యా ఆయేతశ్చ ప్రషాదేషు శ్రుతాసు సుఖేషు రుద్రా మరుతో రథేషు వనాజిగ్రాజిగతే నిపో భియా పృథివీ చిద్రేజతే పర్వదశ్చిత్ పర్వదశ్చిన్మయి వృద్ధో వీభాయ దివశ్చిత్సానూరేజత స్వనేవా యత్క్రీలధమరుదర్టిమంతాపాయివ సధ్యం చోధవద్వే ైరభిస్తాభిస్తన్వః పిపిశ్రే శ్రే శ్రేయాం దస్తపసోరథేషు సత్నామహాం చక్రిరే తనూషు అజ్యేష్టాసు అకారిష్టాస ఏతే సంభ్రాతరో వా వృధుస్సౌభాగాయ युवाद्रजेणुघाविष्णे सुधीनामरुद्भ्यः यदुत्तमे मारुतो मध्यमे वायद्वापमे सुभगासो दिविष्ठ अतो नो रुद्राभुतवान् वा अस्याग्ने वित्ताद्धरिणो यद्यजाम अग्निश्च जन्मारुतो विश्ववेदसो दिवो वहद्भवुत्तरादधिष्णुभिः ये मन्दसा नाधुना योरिसादसो वामन्धत्तयजमानाय सुम्भते अग्ने मरद्भ्यः सुभजद्भिर्नक्वाभिः सोमम् विपमन्दसा नो गणश्रीभिः पापकेभिर्विश्वमिन्द्रेभिराजभिर्वै स्वानर प्रतिभा केतुना सजूः श्रेष्ठतमायजेकायेकायज परमस्याः परावदाः क्वा अमो स्वाः क्वा आभीषवः कथम् सेडकथाजय पृष्ठे सदो न सौर्यमाः जघने चोदयेषाम् विसक्षानि नरोऽयमुः पुत्रकृतेन जनायः परा वीरासयेतनमर्याः सोभद्रजानयः अग्नितपो यथा सनत्सास्व्यम् पशुमुदगव्यम् सदा वयम् श्यावा स्वस्तुता जयादोर्वीराजोपमर्बृहत् उदत्वा स्त्रीशशीशसि पुंसो भवदिवस्यसि अदेवत्रा ददाधसाः वियाजानादिजसूरिमिदृष्टन्तम् विकाविलम् देवत्रा क्रीणुते मनाः उदघाने भो अस्तु दः पुमाङ्गिब्रुवे पणिः स वैरदे ययुत्समः उत मेरपद्युभजर्मा मन्दुषी प्रतिश्यावाजवर्तनिम् विरोहीजामुरुमेढाय जेम दुर्वित्राय दीर्घज ससे यो मे धेनूनाम् सदम् वैदस्वर्यथा ददत् हरन्त जीवमम्भनाः यजीम् वहन्त आसुभिः पिबन्तोमधिरम् मधु अत्र श्रवांसि दधिरे येषाम् श्रियाधिरोदसी विभ्राजन्तोरथेष्वा दिवि ऋक्मयीवोपरि युवासमारुतो गणश्वेषरथो अनेद्यः सुभय्या वा प्रादिष्कृतः को वेद नूनमेषाम् यत्र मदम् विधूतयः ऋतजाता रेवसाः योऽयम् अर्थम् विभञ्जः प्रणेतार इच्छा धिया श्रोतारोजामाहूदिषु तेनोपसूरिगाम्या पुरश्चन्द्रारीसादसः आयज्ञियासो वृत्तन एतम् मे स्तोमूर्मेलाभ्याय परावः गिरो देवि रथिरिव उत मे मोचतादिधि सुदसो मे रथवीतौ हकामो अपवेदि मे येष क्षेतिरथवीतिर्मघवागोमतीरनु पर्वतेष्वसृगः ओ